शुक्लां वरदरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। सरस्वती नमस्तेऽस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। सर्वेभ्यः नमः महोदय।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र हल् सन्धिः इति। तत्र हल् सन्धि इति तत्र दीर्घबृहान् विषयः। तत्र वयं तत्र अनेकान् प्रकारान् तत्र अनेके प्रकाराः सन्धयः ये सन्ति तेषु तत्र काञ्चन दृष्टवन्तः। तत्र अनुनासिकसन्धिः अपि तत्र परसवर्णसन्धिः इति पठितम् अपि तत्र परसवर्ण तत्र गतवर्गे कुत्र स्मः वयं तत्र परसवर्णसन्धिः तत्र करपत्रे अपि पठितवन्तः अपि पेज् 38 मध्ये तत्र कियत्पर्यन्तम् आगतवन्तः कोऽपि स्मरति वा तत्र सर्वं
इति बिन्दुः अस्ति न महोदय तत्
अस्तु तद् न कृतवन्तः इति
न कृतवन्तः महोदय अतः अनुस्वारस्य तद् आरम्भे पठनीयम्।
ओ धन्यवादः भगिनि। अस्तु अस्तु धन्यवादः भगिनि। हा अस्तु समीचीनं। हा तर्हि तत्र अस्तु तत्र अशोभगिनी आरम्भं करोति वा तर्हि।
आं महोदय।
पेज् 38 मध्ये अतः इति
अतः अनुस्वारस्य वर्गीयव्यञ्जने ययि अतः अनुस्वारस्य वर्गीयव्यञ्जने इत्युक्ते ययि परे तद् वर्गस्य पञ्चमो वर्णः आदेशो भवति पदान्ते स्थितस्य अनुस्वारस्य तु विकल्पेन। यवलेषु परेषु तु य व ल ल तत्र अनुनासिक य व ल इत्यादेशो भवति। तवर्गस्य लकारे परे लकारादेशो भवति। तत्र यदि नकारः तस्य अनुनासिकलकारो भवति। अस्तु इदानीं पर्यन्तं यत् श्रुतवन्तः तस्य सारांशः अस्ति तत्र। अनुस्वारस्य वर्गीयव्यञ्जने इत्युक्ते तत्र यै प्रत्याहारस्थवर्णाः सन्ति चेत् परे सन्ति चेत् तद् वर्ग तस्मात् पूर्वं यत् यः वर्णः अस्ति तस्य तद् वर्गस्य पञ्चमो वर्णः आदेशो भवति इत्युक्ते तवर्गीय इत्युक्ते तत्र कवर्गात् आरम्भं कुर्मः चेत् क ख ग घ अपि च छ ज ञ इत्यादयः ते आदेशाः भवन्ति। पदान्ते स्थितस्य अनुस्वारस्य तु विकल्पेन तत्र पदान्ते विकल्पेन भवति किन्तु पदस्य मध्ये नित्यम् इति दृष्टवन्तः। पदान्ते इति तत्र किं तत्र अनुस्वारस्य ययि परसवर्णः इति तु पदस्य मध्ये भवति अतः नित्यम् अपि च वा पदान्तस्य इत्यनेन अनुस्वारस्य तत्र वा पदान्तस्य इत्यनेन पदान्ते अस्ति चेत् विकल्पेन भवति अतः रूपद्वयं सिध्यतः इति दृष्टवन्तः। अपि च यावलेषु इत्युक्ते यावल इति वर्णाः सन्ति चेत् परे तेषां तु यकारस्य अनुनासिकयकारः वकारस्य अनुनासिकवकारः लकारस्य अनुनासिकवकारः एव आदेशरूपेण आगच्छन्ति इत्युक्ते तत्र चन्द्रबिन्दुसहितरूपाणि अनुस्वारस्य स्थाने आदेशाः भवन्ति इति अपि दृष्टवन्तः. तत्र तादृशं भवति चेत् यकारद्वयम् आगच्छति इति यथा तत्र तं योगः यमः इति अस्ति चेत् प्रथमं तु सम् इति उपसर्गः पदम् अस्ति इति कृत्वा तत्र मूनुस्वारः इत्यनेन मकारस्य अनुस्वारादेशः. तदनन्तरं यकारः परे अस्ति इति कृत्वा तत्र अनुस्वारस्य स्थाने अनुनासिकयकारः आदेशः, अतः तत्र संयमः इति यकारद्वयं दृश्यते. नो एकस्मिन् पक्षे विवक्षा नास्ति चेत् संयमः इति अनुस्वारसहित रूपं दृश्यते. तवर्गस्य लकारे परे लकारादेशो भवति, तत्र दृष्टवन्तः तोर्लि इति सूत्रमस्ति. तोर्लि इत्युक्ते तोः परसवर्णः, लि इत्युक्ते लकारे परे, लि इति सप्तमी तत्र संहितायाम् इति. तत्र एकम् उदाहरणम् आसीत् तत् योगः लयः इत्युक्ते प्रथमं तु जलां जश्रुन्ते इत्यनेन तद् इति भवति, तदनन्तरं तवर्गीयवर्णः तस्मात् परं लकारः इति कृत्वा तुर्लि इत्यनेन दकारस्य स्थाने लकारादेशः, अतः तल्लयः इति रूपं सिद्ध्यति तत्र. तदपि दृष्टवन्तः तत्र ययि यदि नकारः तस्य अनुनासिकलकारो भवति. यदि नकारः इत्युक्ते तत्र नकारात् परो लकारः अव्यवहितः चेत् नकारस्य परसवर्णः अनुनासिकः लकारः भवति इति दृष्टवन्तः. तत्र विद्वान् इति आसीत्, विद्वान् योगः लिखति इति, नकारात् परं लकारः, तत्र लकार अनुनासिकलकारः आदेशः भवति इति. इत्युक्ते तोर्लि इत्यस्य किम् अभवत् तत्र, नकारस्य स्थाने लकारादेशः, तत्र किञ्चित् विस्मृतवती महोदय. तोर्लि इत्यनेन तु तवर्गीयवर्णस्य स्थाने किं तोः परसवर्णः लीपरे समितायाम् इति
लकारादेशः भवति. करपत्रे अस्मिन् विषये तत्र सूत्रं न दत्तम् इति मन्ये भगिनि.
तत्र नकारात् परे लकारः अव्यवहितः इत्युक्ते अनुक्तः इति भवति, किन्तु तत्र किञ्चित् भ्रमः आसीत् पूर्वस्मिन् वर्गे अपि, नकारस्य परसवर्णः अनुनासिकः
इति अहं चिन्तयामि भगिनि. तत्र प्रायशः पदे भवेत् लकारः, केवलं तत्र केवलं लकारः एकैकी नास्ति, किन्तु लकारः तत्र पदे अस्ति, तत्र वर्णसमूहः भवेत् इति चेत् तत्र अव्यवहित इति चिन्तयामि, किन्तु द्रष्टव्यमस्ति. हा सम्यक् रीत्या न जानामि. हा
हा आं महोदय, ममापि अहं किञ्चित् दृष्ट्वा वदामि अनन्तरम्.
अस्तु अस्तु, किन्तु यत् भवती उक्तवती सारांशत्वेन उत्तममस्ति भगिनि. धन्यवादः.
धन्यवादः.
तत्र सर्वेषां कृते तत्र इदानीं तत्र परसवर्णसन्धेः तत्र विषयः तत्र सम्यक् रीत्या स्थापितः भवति इति मन्ये मनसि.
अत्र तत्र त्रीणि सूत्राणि सन्ति आहत्य.
सत्यं भगिनि. हा
अनुस्वारस्य ययि परसवर्णः वापदान्तस्य इति तत्र नित्यसूत्रं पदस्य मध्ये वापदान्तस्य इति पदान्ते वैकल्पिक कार्यम् अपि च तोर्लि इति तु तत्र
तोर्लि इति तकारः लकारः अस्ति चेत् तत्र तकारस्य लकाररूपेण आदेशः
भवति
इति. उत्तमं भगिनि, धन्यवादः. तर्हि इदानीं तत्र वयं सिद्धाः तत्र अभ्यासान् कर्तुम्. अस्तु समीचीनं. तर्हि तत्र वेदा भगिनी आरम्भं करोति वा रिक्तस्थानम् इति? वेदा भगिनी वेदभगिनी श्रूयते वा?
हा महोदय, हा श्रूयते. अस्तु, कुत्र अस्ति अत्र पूर्वपदे अनुस्वारस्य स्थाने तत्र एव वा?
एकवारं पठित्वा तदनन्तरम् अभ्यासम्.
अत्र पूर्वपदे अनुस्वारस्य स्थाने परवर्गीय सवर्णव्यञ्जनानि आदेशाः भवन्ति. पूर्वपदे अनुस्वारस्य स्थाने परवर्गीय सवर्णव्यञ्जनानि आदेशाः भवन्ति, अतः परसवर्णसन्धिः इति नाम. अस्तु, परसवर्णसन्धिः इति नामधेयं किमर्थम् आयाति इति तत्र उक्तं. पूर्वपदे अनुस्वारस्य स्थाने परवर्गीय सवर्ण व्यञ्जनानि आदेशाः भवन्ति इति कारणतः तद् सन्धिः परसवर्णसन्धिः इति उक्तम् इति तस्य नाम. अस्तु, रिक्तस्थानि पूरयत. पुण्यकृतान् योगः लोकान्. पुण्यकृतान् तत्र पदान्ते अस्ति नकारः, उत्तरपदे अस्ति लकारः, लकारादि प्रत्यय ल अस्ति. पुण्यकृतान् योग लोकान् तत्र लकारः अस्ति, नकार पूर्वपदे अस्ति, नकारान्त अस्ति. तदेव तत्र सन्धि भूत्वा नकारस्य स्थाने लकार आदेशः भवति, अनुनासिकलकार आदेशो भवति. तदेव तत्र पुण्य कृतान् इत्युक्ते तत्र किं वदामि, लकार उपरि चन्द्रमाबिन्दु अस्ति, तद् वर्णः आयाति. पुण्य कृतालं लोकान् इति, पुण्यकृतालोकान् नकारस्य स्थाने लकार चन्द्रमाबिन्दुसहितं तत्र रूपम् आयाति, तस्य रूपम् आयाति तत्र. पुण्यकृतालोकान्
पुण्यकृतान् लोकान् समीचीनं भगिनि.
आं महोदय.
अस्तु, इदानीं तत्र श्लोकः यः अस्ति,
ओ श्लोकः 6.41 सप्तमे अध्याये एकचतुर्
षष्ठे अध्याये,
ओ षष्ठे अध्याये 641 प्राप्य पुण्यकृतान्. ओके, प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वती समाः, शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते. प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः, शुचीनां श्रीमतां गेहे योगभ्रष्टः अभिजायते. अस्तु, तत्र किम् अस्ति, प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः, शुचीनां श्रीमतां गेह योगभ्रष्टो अभिजायते. अभिजायते किम् अभिजायते? अभिजायते इत्युक्ते
जन्म प्राप्नोति
जायते इति. आम्, अभिजायते
नाम तत्र तस्य जन्म भवति अथवा तस्याः जन्म भवति इति.
तस्याः जन्म भवति कस्याः? योगभ्रष्टः तस्य जन्म भवति.
योगभ्रष्टः इत्युक्ते
यद् योगात् परे
योगात् योगात् इति समीचीनं भगिनि, पञ्चमे एव. योगात् भ्रष्टः, भ्रष्टः नाम तत्र इदानीं तत्र पूर्वं समूहे आसीत् तत्र योगी इति आसीत्, किन्तु इदानीं तादृशः नास्ति
तत्र.
हा नाम तत्र तादृशः नास्ति, नाम पूर्वं कृतवान् किन्तु इदानीं तत्र तादृशी स्थितिः तस्य नास्ति.
योगमार्गात् पतितः इति वक्तुं शक्यते.
हा, पतितः तादृश भ्रष्टः इति जानीमः खलु तत्र. देशात् भ्रष्टः इत्युक्ते तत्र देशात् तत्र गतवान् तत्र देशे तस्य अनुमतिः नास्ति देशस्य देशे वसितुं खलु. तादृशभ्रष्टः, योगभ्रष्टः
अभिजायते. कुत्र तस्य जन्म भवति इति अस्ति चेत् तत्र गेहे तस्य भवति गेहे भवति
समीचीनं
कीदृशं
गेहे इत्युक्ते तत्र
गृहे
गेहः गृहः गृहे इति गृहे इति तादृश
परिवारे कुटुम्बे इति
कुटुम्बे कुटुम्बे
तस्य जन्म भवति कीदृश कुटुम्बे शुचीनां श्रीमताम् इत्युक्ते शुचीनाम् इत्युक्ते शुद्ध इति वदामि वा शुचि
अत्र श्री इत्युक्ते यत्र तत्र श्री इत्युक्ते लक्ष्मी
धनम् अस्ति चेत्
श्री नाम तत्र धनिककुटुम्बे धनिककुटुम्बे इति
धनिककुटुम्बे अपि च शुचीनाम् इत्युक्ते गुड् फ्यामिलि शुचि इत्युक्ते शुद्ध वदामि वा किं वदामि शुचि
शुचीनां श्रीमतं सत्यं
गुड् फ्यामिलि गुड् धनवान् फ्यामिलि तस्य अभिजायते प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः किं वदामि तत्र प्राप्य पुण्यकृतां पुण्यकृतां प्राप्य लोकान् उषित्वा शाश्वती समा उषित्वा इत्युक्ते उषित्वा
ततः बहिः तत्र क्षम्यतां तत्र वदतु भगिनि
वस् धातुः वसत्वान्तरूपम् उषित्वा इति भवति वसति वसनं उषित्वा इत्युक्ते वासं
लोकान् उषित्वा शाश्वतीः समाः शाश्वतीः समः इत्युक्ते शाश्वती समा इत्युक्ते लाङ्ग् इयर्स् लैक्
दीर्घकालः
शाश्वती समाः यत् लोकान् वसन्ति ते प्राप्य तद् जन्म तद् जन्म पुण्यकृतां प्राप्य इति मन्यते वा तद् प्राप्नोति
तत्र
पुण्यकृतां लोकान् पुण्यकृतान् लोकान् शाश्वती समाः प्राप्तवान् इति वदति वा किं वदामि तत्र
तत्र पुण्यकृतान् लोकान् प्राप्य इति अस्ति खलु भगिनि योगभ्रष्टः कोऽपि अस्ति सः पुण्यकृतान् लोकान् प्राप्य नाम
तादृशलोकं
नाम तत्र लोकः यत् तत्र लोकः कीदृशः लोकः यस्य प्राप्तिः तत्र पुण्येन एव तत्र पुण्यकार्येण एव तत्र तादृशलोकं गन्तुं शक्नुमः प्राप्तुं शक्नुमः पुण्यकृतः लोकः नाम पुण्येन कृतान् इति दत्तमस्ति नाम तत्र तादृशलोकं यदि गन्तुम् इच्छामः तत्र स्वर्गः इति चिन्तयतु किन्तु केवलं स्वर्गः इति नास्ति किन्तु तादृशलोकः यत्र गन्तुं तत्र अनेकानि पुण्यकार्याणि यदि कृतानि तदा एव तत्र गन्तुं शक्नुमः खलु तादृशलोकान् प्राप्य नाम तत्र स्थित्वा उषित्वा बहुकालं तत्र उषित्वा तदनन्तरं तत्र यदि तत्र
योगः
इदानीं तत्र सः तत्र तदनन्तरं तत्र योगभ्रष्टः भवति चेत् तादृशः
मनुष्यः
तत्र एतादृशं तत्र शुचीनां श्रीमतं गेहे
ओहो तस्य जन्म
तस्य जन्म तादृशे स्थले भवति
अस्तु अस्तु ओके
तत्र पूर्वं तत्र अग्रिमे श्लोके अपि अन्यत् तादृशमेव दत्तम्
इत्युक्ते पूर्वजन्मनि सः पुण्यं यत् कृतं तत् कारणेन अपि च तत् कारणेन तस्य जन्मः भवति पुनर्जन्मः भवति शुचीनां गृहे इति वा
तादृशं भगिनि तादृशमस्ति भगिनि तादृशमस्ति तादृशमस्ति अपि तत्र अग्रिमे श्लोके अपि तत्र अन्यभागः नाम तत्र विकल्पः अस्ति नाम शुचीनां श्रीमतं गेहे अथवा अग्रे तत्र अग्रिमे श्लोके अथवा योगिनाम् एव कुले भवति नाम तस्य जन्म एतादृशे कुले भवति अथवा योगिनां कुले एव भवति
अस्तु
नाम तत् तादृशजन्म विरलतया प्राप्यते इति नाम उत्तमकुले
योगभ्रष्टः इति किमर्थं तत्र उक्तम् इति महोदय मम प्रश्नः अस्ति पूर्वजन्मे सः पुण्यं कृतवान् अपि च किमपि पुण्यं कृतवान् परन्तु पुनर्जन्मे सः परन्तु पूर्वजन्मे इत्युक्ते पूर्वजन्मे यद् योगभ्रष्टः भवति वा
योगभ्रष्टः इति पुनर्जन्मे इति वदतु भगिनि
मम अवगमनम् वदामि तत्र अस्मिन् जन्मे योगभ्रष्टः भवति चेदपि तत्र यतोहि सः योगं कृतवान् यावत् किञ्चित् अपि योगं कृतवान् चेत् अन्ते भ्रष्टः भवति चेदपि तस्मात् पुण्यात् पुण्यात् इति भवति पुण्यात् सः पुण्यलोकान् प्राप्नोति तदनन्तरम् इत्युक्ते तस्य मोक्षः न भवति यतोहि योगभ्रष्टः अभवत् इति किन्तु पुण्यलोकान् प्राप्नोति तदनन्तरं पुनः तस्मिन्नेव योगमार्गे चलितुं पुनः अवकाशं प्राप्नोति अतः तत्र किं श्रीमतां शुचीनां गृहे जन्म प्राप्नोति इति अहं मन्ये महोदय
समीचीनं भगिनि तथैव अस्ति इति मन्ये नाम तत्र कृतवान् योगं कृतवान् योगमार्गे अग्रे गतवान् किन्तु तत्र तथा तत्र
तत्र शाश्वततया न स्थितवान्
अतः तत्र पुनः तस्मिन् मार्गे एव गन्तुम् अवकाशः
कल्पते
पुनः भवति किन्तु मध्ये तत्र पुण्यलोकान् एव तत्र सर्वत्र उषित्वा तदनन्तरं पुनः तत्र अवकाशः प्राप्यते तेन समीचीनमस्ति भगिनि समीचीनरीत्या उक्तवती समीचीनं भगिनि वेदा भगिनी इदानीं तत्र स्पष्टं वा
आं महोदय
नाम एक एव जन्मनि तत्र मार्गस्य पूर्णमार्गं तत्र न गन्तुं शक्नुमः खलु तत्र सर्वैः तत्र
इत्युक्ते व्यर्थः न भवति इति खलु
व्यर्थः न भवति तत्र प्रत्येकस्मिन् जन्मनि यद्यद् वयं कुर्मः तस्य महत्त्वम् अस्ति एव इति उत्तमम् उत्तमश्लोकः एव अस्तु धन्यवादः भगिनि भगिनि धन्यवादः वेदा भगिनि
धन्यवादः
अस्तु इदानीम् अग्रे नरेश् महोदय अग्रे
शुभान् योगलोकान् शुभान् लोकान् भवति नकारस्य स्थाने अनुनासिकलकारः आगच्छति शुभान् लोकान् भवति
समीचीनं महोदय
सूत्रमस्ति 18.71 श्रद्धावान् न सूयश्च
अनसूयश्च
अनसूयश्च शृणुयात् अपि यो नरः सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणां श्रद्धावान् अनसूयश्च शृणुयात् अपि यो नरः यो नरः अस्ति सो अपि भवति श्रद्धावान् अनसूयश्च यः नरः अस्ति शृणुयात् अपि यः अस्ति सः मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणां पुनः सः शुभान् लोकान् प्राप्नोति पुण्यकर्मणां
महोदय तत्र प्रथमभागः कः इति एकवारं वदतु तत्र तत्र वाक्यस्य तत्र आकृतिः यः सः इति
यः यः नरः श्रद्धावान् अनसूयः पि शृणुयात् अपि यः नरः
शृणुयात् नाम शृणुयात् च शृणुयात् नाम सः नरः कीदृशः भवेत्
श्रद्धावान् भवेत् अनसूयः भवेत्
नाम असूय तत्र असूयः रहितः
अनसूयः सूयरहितः
असूयरहितः
शृणुयारहितः
अस्ति चेत् यदि सः शृणुयात् शृणुयात् इति तत्र विधिलिङ्ग् खलु
शृणुयात्
कुर्यात् यदि सः शृणुयात् अपि
सः
सः प्राप्नुयात्
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 शुभान् लोकान् शुभान् लोकान् प्राप्नुयात्
पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् अपि सः
मुक्तः
एतत् सर्वं पुण्य लोकान् प्राप्नुयात् किन्तु सः कीदृशः भवति सः मुक्तः भवति
मुक्तः
सः अपि मुक्तः नाम तत्र केवलं तत्र भगवद्गीतायाः तत्र श्रवणेन अपि श्रद्धावान् अनसूयः अस्ति चेत् यदि सः शृणोति श्रद्धया शृणोति अपि अनसूयः अस्ति चेत् तादृशः पुरुषः तत्र मुक्तः भवति अपि तत्र लोकान् तत्र शुभान् लोकान् प्राप्नोति
प्राप्नोति
कीदृश शुभान् लोकान् इत्युक्ते तत्र पुण्यकर्मणां ये लोकाः तत्र पुण्यकर्मणा एव तत्र तादृशानां तादृश लोकः नाम तत्र गन्तुं पुण्यकर्माणि आवश्यकानि इति तादृशलोकं सः गच्छति प्राप्नोति इति अस्तु अस्तु समीचीनम् अस्तु अग्रे तत्र उषा भगिनी अग्रे
श्रुतिमत् अस्ति तत्र अनन्तरं श्रुतिमल्लोके इति रूपं भवति श्रुतिमत् पदस्य अन्ते तकारः अस्ति प्रथमं तु जलां झषन्ति इत्यनेन पदान्तात् तकारः अस्ति चेत् झष् भवति अतः श्रुतिमद् कृत्वा अनन्तरं तुर्लि इत्यनेन लकारादेशः भवति तत्र
तुर्लि तुर्लि इत्यनेन
अनुनासिक अननुनासिकलकारः भवति न महोदय तत्र
तत्र आम् इति मन्ये भगिनि हा यतोहि तत्र तोर्लि इत्यनेन तत्र केवलं लकारः एव तत्र
अतः श्री श्रीमल्लोके इति रूपं भवति
हा सत्यं भगिनि तत्र हा चन्द्रबिन्दुः नास्ति किमपि नास्ति केवलं लकारः एव सत्यं भगिनि हा
श्लोकः अस्ति त्रयोदश
अध्याये त्रयोदशश्लोकः
त्रयोदश परन्तु त्रयोदशसूत्रे वाक्यं नास्ति महोदय चतुर्दशसूत्रे अस्ति
अस्तु 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 पठतु तर्हि
सर्वतः पाणिपादं तत् सर्वतोक्षि क्षिरो मुखं सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति सर्वतः इत्युक्ते सर्वत्र पाणिपादं पाणि इत्युक्ते हस्त पादं पादम् अपि च तद् सर्वत्र अक्षि इत्युक्ते आङ्क् वाट्
नेत्रं
नेत्रं शिर अक्षि शिरः शिरः अपि च शिरः मुखं मुखं अपि च सर्वतः
इत्युक्ते नाम
मुखम् इत्युक्ते मुखमेव न महोदय पूर्वं
मुखमिति तत्र हिन्दीभाषायां अथवा तत्र साधारणतया मुखम् इत्युक्ते कन्नडभाषायां मुखम् इत्युक्ते आननम् अत्र मुखम् इत्युक्ते तत्र येन खादामः तदस्ति मुखम्
ओ
मौत्
ओ सर्वत्र श्रुति अनन्तरं
सर्वतः श्रुतिमल्लोके
श्रुतिमल्लोके श्रुति इत्युक्ते शृणोति
सर्वतः श्रुतिमत्
श्रुतिमत्
श्रुतिमत् नाम श्रवणेन्द्रियम्
श्रवणेन्द्रियं
श्रुति श्रुति इति श्रवणेन्द्रिय मत् तत्र श्रुतिमत् इति तत्र मतुप्
श्रुतिमत् लोके लोके इत्युक्ते अस्य संसारे इति अस्ति वा महोदय
नाम तत्र अस्माकं लोके यत्
लोके
अस्माकं परिचिते लोके
सर्वमावृत्य सर्वम् आवृत्य आवृणोति इत्युक्ते व्याप्तः
आवृणोति समीचीनं
सर्वत्र व्याप्तः तिष्ठति भगवान् लैक् हस्ते पादे अपि च मुखे श्रवणेन्द्रिये सर्वत्र व्याप्तवान् अस्ति इति
अस्ति भगिनि सत्यं
अस्ति महोदय
सत्यं भगिनि सर्व इन्द्रियैः तत्र सर्वत्र सर्व इन्द्रियैः व्याप्य तत्र भगवान् लोके तिष्ठति अवस्थितः अस्ति समीचीनं भगिनि तथैव अस्ति तत्र श्रुतिमल् श्रुतिमत् योगः लोके श्रुतिमल् लोके इति उत्तमं भगिनि समीचीनं धन्यवादः अस्तु अग्रे शोभा भगिनि
आं महोदय अग्रिममस्ति अहं तत्र फलितपदं दत्तम् अहङ्कारः
तस्मात्
पूर्वं क्षणतां समन्तात् अस्तु समन्तात् समन्ताल्लोकान् इति अस्ति तत्र समन्ताल् इति दृश्यते इति कृत्वा तत्र तकारः तवर्गीयवर्णः आसीत् इति यतोहि तोर्लि तवर्गीयवर्णस्य एव स्थाने लकारः आगच्छति समन्तात् योगः लोकान् इति भवति पूर्वम् इदानीं तोर्लि इत्यनेन तकारस्य स्थाने केवलं लकारादेशः यतोहि अनुनासिकवर्णः नास्ति अतः समन्ताल् लोकान् इति रूपं सिद्ध्यति अपि च तस्य श्लोकः अस्ति
समीचीनमस्ति भगिनि
हा तत्र एकादशाध्याये
द्वादशाध्याये
अस्ति वा
तर्टि
एकादश
एकादशाध्याये अस्ति भगिनि
एकादश अस्ति
अस्तु वा ओके Huh. Let us read the sloka, we know where it is. Okay, correct.
Tatra lelihya se grasamanah samantat iti isti. Samantat tadanantaram lokan. Samantat lokan samagran vadanaihi jaladbhihi.
Lihya se.
Haan, jaladbhihi. तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो जटिलः अस्ति किन्तु तत्र महोदय अहं तत्र पदच्छेदं पश्यन्ती अस्मि एकक्षणम् अस्तु तत्र लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः तेजोभिः आपूर्य जगत् समग्रं भासः तव उग्राः प्रतपन्ति विष्णो तत्र अन्वयं पश्यन्ती अस्मि समग्रान् लोकान् ज्वलद्भिः वदनैः समग्रान् लोकान् इति तदनन्तरं वदनैः इत्युक्ते तत्र पुनः
वक्त्रं
हा ज्वलद्भिः वदनैः ज्वाला वदनम् इति नपुंसकलिङ्गे खलु महोदय ज्वालायुक्तैः वदनैः ग्रसमानः इत्युक्ते तत्र खादति इति भवति इत्युक्ते तत्र डिवावरिङ्ग्
तत्र ग्रसमानः इति तत्र
ग्रस् इति धातुः
किन्तु तत्र ग्रसते इति अस्ति वा किन्तु ग्रसमानः
इति यतोहि ग्रसमानः शानच् अस्ति
शानच् तर्हि तत्र
ग्रसते इति प्रायशः
किन्तु शानच् एव तत्र
शानच् एव ग्रसमानः समन्तात् समन्तात् इति मन्ये तत्र समन्तात् तत्र अव्ययपदम् इति दत्तम् इत्युक्ते सर्वैः दिग्भिः दिक् इति दिग्भिः एव भवति खलु महोदय सर्वैः दिग्भिः भवति
सत्यं भगिनि दिक् इति एव अस्ति खलु
दिक् इति प्रातिपदिकं दिग् इति भवति दिग्भिः इति मन्ये सर्वैः दिग्भिः लेलिह्यसे इत्युक्ते तत्र लिह् इति धातुः इति दृश्यते महोदय लिह् इति लेलिह्यसे इति मध्यमपुरुषे एकवचने त्वं लेलिह्यसे लिखि इति भवति लिह् इति लेह्यः इति अपि अस्ति पदं विष्णो सम्बोधनरूपं विष्णो तव उग्राः भासः समग्रं जगत् तेजोभिः आपूर्य इत्युक्ते तत्र व्याप्य इति अर्थे भवति प्रतपन्ति तपन्ति इत्यस्य प्र उपसर्गस्य योजनेन प्रतपन्ति प्रतापः तापः प्रतपन्ति ज्वलति ज्वलन्ति इति इत्युक्ते तत्र समग्रान् लोकान् ज्वलद्भिः वदनैः त्वं ग्रसमानः समन्तात् ग्रसमानः लेलिह्यसे विष्णो तव उग्राः भासः इत्युक्ते प्रकाशः समग्रं जगत् तेजोभिः आपूर्य तेजोभिः आच्छादितः समग्रं जगत् जगत् इति तत्र स्त्रीलिङ्गे वस्तुतः समग्रं जगत् इति दत्तं समग्रं नपुंसकलिङ्गे जगत् जगत् इति जगत् इति नपुंस अतः समग्रं जगत् तेजोभिः आवृतम् आच्छादितम् आच्छादितं भूत्वा प्रतपन्ति इति जगत् प्रतपन्ति
जगत् प्रतपन्ति तपन्ति
तपन्ति तत्र बहुवचने
यतोहि तत्र उग्राः
प्रतपन्ति इत्युक्ते
तव 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 उग्राः भाषाः इति अस्ति खलु
उग्राः
तत्र
तव उग्राः भाषाः तत्र
भाषाः इति तत्र
समग्रं जगत् आवरणं करोति
तत्र भाषः इति अस्ति किन्तु तत्र भाषः यद्यपि अस्ति भगिनि तत्र एकवचनम् इति दृश्यते किन्तु बहुवचनमेव अस्ति खलु भाषः
अस्तु अस्तु भाषः भाषः उग्राः भाषः
तत्र उग्राः इति दृष्ट्वा
बहुवचने
बहुवचने इति
बहुवचने
इति तत्र किन्तु भास् इति प्रातिपदिकं तर्हि तत्र सकारान्तपदं तादृशं पदं किं जानीमः तत्र
हलन्त अस्ति चेत्
अप्सरस्
अप्सराः इति प्रथमविभक्तौ अप्सरसः इति भवति खलु महोदय
अतः एव भगिनि तत्र भासस् इति अस्ति तत्र
दिक् अस्ति चेत् दिशः इति भवति बहुवचने
तत्र भासस् इति अस्ति खलु भगिनि तत्र भासस् तवोग्रह
भासस् अस्ति वा भास् इति दत्तं
तत्र भासस् तवोग्राः इति
भासः इत्यस्य विसर्गस्य सकारः प्रायशः महोदय तव उग्राः तवोग्राः मन्ये महोदय प्रतपन्ति
स्त्रीलिङ्गे भासः स्त्रीलिङ्गे एव इति मन्ये तर्हि तत्र बहुवचनम् इति दत्तम् अस्तु नूतनपदं भासः
नूतनपदं बहुवचने अस्ति स्त्रीलिङ्गे अस्ति
अतः तत्र द्रष्टव्यमस्ति लेलिह्यसे इति अपि तत्र नूतनधातुः
लेलिह्यसे
समन्तरूपे
तद् सन्नन्तरूपं वा लेलिह्यसे द्वित्वं भवति तत्र
लेलिह्यसे तत्र प्रायश तत्र गणस्य कारणेन इति मन्ये इति नास्ति वा
सन् सन् एव भगिनि
सन् इति
लिह्यति सन् रूपं लेख् दातु
ले लिह् इति रूपम् आयाति चेत् सन्नन्तरूपमिति
इति अस्ति किन्तु भासः सत्यं भगिनि स्त्रीलिङ्गे इति दत्तं भगिनि बहुवचने
बहुवचनमपि
भास् इति तत्र प्रातिपदिकम् इति दत्तम् तत्र यथा तत्र प्रायश शब्दपाठे यदि
बहुवचनं तद् तद् न अवगतं महोदय तत्र जगत् इति एकवचने अस्ति किन्तु प्रतपन्ति इति बहुवचने
भास् अस्ति चेत् स्त्रीलिङ्गे भाः भासौ भासः अस्ति बहुवचने
इति वा भगिनि समीचीनम्
आम् महोदय
दिश् दिश्य इति रूपं दिश् दिक् दिशौ दिशः एतत् एव तत्रापि अहं मन्ये भासः इत्युक्ते भाष् भाषौ भासः
न न न भा भाः भासौ भासः
प्रथमाविभक्त एकवचने तत्र भाः इति वा अस्तु धन्यवादः भगिनि उत्तमं
भासौ भासः भासा भाभ्यां भाभिः भासे भाभ्यां भाभ्यः भासभ्यां भाभ्यः भासः भासोः भासां भासि भासोः भासु अथवा भासु
भगिनि एकवारं पुनः प्रथमविभक्तिरूपं वदतु
भाः
अस्तु भाः
भासौ भासः
भाः भाः ओके अन् प्रातिपदिकमस्ति भास्
तर्हि नूतनपदमेव अस्ति भगिनि धन्यवादः तत्र किं शब्दमञ्जर्याम् अस्ति वा एतत्
संस्कृत अभ्यास इति अस्ति न महोदय तत्र अस्ति महोदय
अस्तु भगिनि समीचीनं भगिनि हा अतः तत्र नूतनपदं ज्ञातवन्तः अद्य अस्तु समीचीनं
केतनरूपेणे अपि अस्ति
किं भगिनि
भास् नपुंसकलिङ्गे अपि अस्ति
अस्तु 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 तत्रापि अर्थः समानः वा तत्र
न तद्भवति भाः भासि भांसि
किन्तु अर्थः पदस्य अर्थः कः
पदस्य अर्थः न दत्तं महोदय
लिङ्गे
नपुंसकलिङ्गे इति दत्तमस्ति
अस्तु
इल्यूमिनेटिङ्ग् प्रकाशः इति अस्ति महोदय भासः इत्युक्ते तत्र केवलं तत्र उग्राः भासः इति बहुवचने अस्ति इति कृत्वा ते एव प्रतपन्ति इति भवति खलु उग्राः भासः प्रतपन्ति
तपन्ति
सम्यक् सत्यं बहुवचनरूपं तथा तदर्थमेव दत्तं
किरणि अस्ति महोदय किरण्
ओ अस्तु अस्तु किरणाः
कुत्र भगिनी कुत्र दृष्टवती
किं भगिनि
भाषारूपं कुत्र अस्ति
संस्कृत अभ्यास
इति पुस्तकं
पुस्तकं
महोदय इण्टर्नेट् मध्ये
ओ इण्टर्नेट् मध्ये
संस्कृत डिक्शनरि यद् अस्ति तदेव संस्कृत अभ्यास इति अस्ति
धन्यवादः भगिनि उत्तमं अस्तु तर्हि तर्हि तत्र क्लिष्टः श्लोकः किन्तु किञ्चित् अवगमनं जातमेव अस्तु धन्यवादः भगिनि अस्तु इदानीम् अग्रे तत्र वेद भगिनि अग्रे
कुत्र अस्ति ओके अहम् अहङ्कारः इति फलितरूपमस्ति अहङ्कारः तत्र अहं प्लस् कारः इति तस्य किं वदामि तस्य रूपं भवति अहं योगः कारः मकारस्य ङकारे किमर्थम् आयाति चेत् तत्र मकारस्य स्थाने अनुनासिकवर्णः अस्ति इति कारणतः अहं पकारस्य स्थाने अहम् अस्ति पश्चात् कारः अस्ति इति कारणतः कवर्गस्य अनुनासिकवर्णः किं ङकारः अस्ति तदेव मकारस्य स्थाने ङकार आयाति किम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तत्र मकारस्य स्थाने ङकार आयाति अहं कारः अहङ्कारः इति रूपम् आयाति इति वा सत्यं वा
सत्यं सत्यं तथैव अस्ति भगिनि
अहङ्कारः प्रेम्खा अन्य कोऽपि पठति वा
अस्तु तद् भवती तत् करोतु तदनन्तरम् अन्य
ओके प्रेम योगः खा तत्र अनुस्वारः अस्ति पूर्वपदे प्रेम खा तत्र मकारस्य स्थाने पुनरेकवारं कवर्गस्य परवर्णः अस्ति कवर्गस्य ख वर्णः तदेव तत्र मकारस्य स्थाने तत् वर्णस्य खवर्णस्य अनुस्वारः आयाति ङकार आयाति प्रेङ् मकारस्य स्थाने ङकार प्रेङ् ख प्रेङ्खा इति रूपं प्राप्तम्।
समीचीनं, हा प्रेङ्खा इति रूपं प्राप्तं, समीचीनम्। अस्तु, अग्रे तत्र सर्वं सर्वे एकमेकं कर्तुं शक्नुवन्ति इति मन्ये। तर्हि तत्र नरेश महोदय अग्रिमम्।
आं महोदय, संयोगगणकम् अत्र अनुस्वारः अस्ति, सम् अग्रे उत्तरपदं गणकम् अस्ति, गण प्रथमवर्णः तु कवर्गस्य अस्ति, अतः अनुस्वारस्य स्थाने कवर्गस्य पञ्चमवर्णः आगच्छति। सङ्गणकं भवति, सङ्गणकम्। अग्रे सम् सम् अस्ति, सम् योग बम् योग धः, अत्र अनुस्वारः अस्ति, अग्रे अपि अनुस्वारः अस्ति, अत्र प्रथम अनुस्वारे परे बकारः अस्ति, बकारः पवर्गे अस्ति, अतः पवर्गस्य पञ्चमवर्णः आगच्छति, मकारः, अतः सम्ब भवति, सम्ब। अग्रे अनुस्वारः अस्ति, अनुस्वारः परे धकारः अस्ति, धकारतवर्गीयवर्णः अस्ति, अतः तवर्गीयपञ्चमवर्णः नकारः आगच्छति, अतः बन्धः भवति। पूर्ण पदं सम्बन्धः भवति।
तत्र परिचितं पदम् अनेकवारं तस्य प्रयोगं कुर्मः, इदानीमेव जानीमः तत्र पव तत्र परसवर्णसन्धिः तस्य कार्यद्वयमस्ति अस्मिन् पदे इति। अस्तु, समीचीनं महोदय। अस्तु, अग्रे तत्र उषा भगिनी अग्रे।
आं महोदय, गृहं न गृहं गृह योगः गत्वा इति अस्ति, तत्र प्रथमं गृहं गत्वा इति रूपम् आयति कथमित्युक्ते मोनुस्वार इत्यनेन पदान्तस्य मकारस्य स्थाने अनुस्वार आदेशः भवति हरिपरे, अतः गृहं गत्वा इति एकं रूपम्। अनन्तरं वा पदान्तस्य इत्यनेन अनुस्वारस्य परसवर्ण आदेशः भवति ययि परे, अतः गृहं गत्वा इति अन्यत् रूपं भवति।
अस्तु, अग्रे
अग्रे वदन् वदन् योगः वदान् लिखति, वदान् लिखति इति वदन् लिखति इति रूपं, तत्र वदन् इति शत्रुप्रत्ययः अस्ति, नकारस्य तोर्लि इत्यनेन लकारः भवति अनुनासिकलकारः, वदान् लिखति इति।
भगिनि तत्र तोर्लि इति नास्ति भगिनि, तोर्लि वदतु भगिनि,
तथा द
तत्र तोर्लि इत्यनेन केवलं लकारस्य आदेशः, न तु तत्र चन्द्रबिन्दुसहितलकारस्य
वदन् वदन् तु शत्रुप्रत्यय, परन्तु तकार भवति प्रथमं।
न भगिनि, तत्र वदन् इति तत्र
वदन् सम्यक् महोदय, प्रातिपदिकं वदत् अस्ति न महोदय?
अस्तु अस्तु,
तकारस्य दकार भवति इति मन्ये महोदय, अनन्तरं तोर्लि इत्यनेन अनुनासिकलकार भवति इति।
किन्तु अस्तु, मम मनसि तत्र सम्यक्तया न दृश्यते, यतोहि
यथा विद्वान् योग लिखति विद्वान् लिखति भवति,
हा किन्तु महोदय तत्र तत् तोर्लि इत्यनेन तत् अस्ति वा तत्र
न न तत् न
नकारात् परे लकारः अव्ययविहित अस्ति चेत् नकारस्य परसवर्णः अनुनासिकलकारः भवति इति अस्ति न
महोदय सत्यं भगिनि तद् अस्ति किन्तु तत्र सूत्रं न दत्तम् इति मम चिन्तनं भगिनि नाम तत्र तोर्लि इति सूत्रेण तत्र तल्लयः इति यत् पदं प्राप्तं
सम्यक् महोदय विद्वान् योगः लिखति इति विद्वान्कारः अस्ति चेत् अनुनासिकवर्णः अतः अनुनासिकलकारः एव आदेशः भवति
सत्यं भगिनि किन्तु तत्र तोर्लि इति कार्यं करोति वा अथवा न करोति वा
तोर्लि इति सूत्र अधः एव दत्तं न महोदय तस्य परिच्छेदे अधः दत्तं न महोदय तत् योः लयः तल्लयः अनन्तरं नकारात् परे लकारः अव्यविहित अस्ति चेत् नकारस्य परसवर्णः अनुनासिकलकारः भवति विद्वान् योगः लिखति विद्वान् लिखति इति रूपं निष्पन्नं भवति
हल्सन्धि करपत्रे तत् दत्तमस्ति तोर्लि मध्ये विद्वान् योगः लिखति
सत्यं महोदय सत्यं सत्यं हा अस्तु किन्तु एक मनसि स्पष्टता नास्ति अतः अहं तत्र पश्यन् अस्मि तर्हि तत्र किं तर्हि तत्र तवर्गस्य
अहं चिन्तयामि तत्र अनुनासिकविहाय तवर्गीयवर्णाः सन्ति चेत् केवलं लकारः नकारः अपि तवर्गीयवर्णः एव अनुनासिकवर्णः अतः तत्र अनुनासिकलकारादेशः भवति
इदानीम् मम मनसि स्पष्टता अस्ति भगिनि हा अतः एव तत्र कथं कथम् इति चिन्तनम् अस्तु समीचीनं भगिनि हा इदानीं स्पष्टं नाम तत्र समीचीनं भगिनि नाम तल्लयः इति तत्र केवलं तकारः नाम त
प्रथमं जष्ट्वं भूत्वा अनन्तरं तोर्लि इति इत्यनेन लकारादेशः भवति त थ द ध येभ्यः परे लकारः अव्यवहितः चेत् जष्ट्वं कृत्वा दकारः तदा तोर्लि इत्यनेन लकारादेशः भवति
तोर्लि इति एव अस्ति भगिनि समीचीनं हा इदानीम् अवगतं हा अस्तु अस्तु समीचीनं तर्हि वधन् लिखति इति यथा विद्वान् लिखति तथैव वधन् लिखति इति अस्ति समीचीनं भगिनि अस्तु हा धन्यवादः उत्तमम् अस्तु इदानीम् अग्रे तर्हि नूतनसन्धिः अशोभ भगिनी आरम्भं करोति वा इदानीम् अष्टम तत्र करपत्रे
आम् अष्टमबिन्दुः नमुडागमसन्धिः नमो ह्रस्वादचि नमुण् नित्यम् इति सूत्रं तत्र किम् अष्टाध्याये तृतीयपादे द्वित्रिंशत्तमं सूत्रं ह्रस्वात् स्वरात् परः यः नम् तदन् नम् इत्युक्ते तत्र नम् प्रत्याहारे सर्वे अनुनासिकवर्णाः सन्ति नमङ्गणनम् इति णम् तदन्तात् पदात् उत्तरस्य अचः नमुट् आगमो भवति नित्यम् णम् प्रत्याहारे न इति वर्णाः अन्तर्भूतः येन विधिस्तदन्तस्य इति सूत्रेण नमन्तात् पदात् इति फलितार्थो भवति नमुट् इत्यस्मिन् तकारः इत्संज्ञकः उकारः उच्चारणार्थम् णम् च प्रत्याहारः अनेन त्रयः आगमः नुट् 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 च यथासङ्ख्यम् अनुदेशः समानाम् इत्यनेन पदान्ते क्रमेण ञकारः चेत् नुमा नुड नुट् आगमः नुडागमः तत्र णकारः चेत् नुडागमः नकारः चेत् नुडागमः नमः पञ्चम्यन्तम् ह्रस्वात् पञ्चम्यन्तम् अचि सप्तम्यन्तम् नमुट् प्रथमान्तम् नित्यम् क्रियाविशेषणम् द्वितीयान्तम् अनेकपदमिदम् सूत्रम् तयोर्वावची संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः पदस्य इत्यस्य अधिकारः विभक्तिरूपपरिणामेन पदात् अनुवृत्तिसहितसूत्रं ह्रस्वात् नमः पदात् नमुट् अचि नित्यं संहितायाम् इदानीं नमो ह्रस्वादचि नमुट् नित्यम् इति सूत्रं ह्रस्वात् स्वरात् परः यः नम् तदन् इति प्रथमं तत्र स्वरः ह्रस्वः स्वरः भवेत् तस्मात् परं यः णम् इत्युक्ते णम् प्रत्याहारे प्रत्याहारात् तत्र कवर्गीय अनुनासिकवर्णः अथवा टवर्गीय अनुनासिकवर्णः णकारः अथवा तवर्गीय अनुनासिकवर्णः एतेषां प्रसक्तिः तदन्ता यः णम् अस्ति चेत् तेषु अन्यतमः अस्ति चेत् तदन्तात् पदात् उत्तरस्य तदन्तात् पदात् उत्तरस्य अचः णमुटागमो भवति नित्यम् इत्युक्ते तत्र इदानीं तत्र कुर्वन् योगः अस्मि इति पश्यामः कुर्वन् इति नकारः णम् प्रत्याहारस्थवर्णः तस्मात् परे अच् अस्ति अचः णमुट् आगमो भवति अचः इत्युक्ते अच् प्रत्याहारस्थवर्णस्य णमुट् आगमो भवति यथा तत्र कुर्वन् अस्मि इत्यस्य कुर्वन् अस्मि अकारस्य नकारादेशः अभवत् तथा नित्यम् इति नित्यं भवति एतस्य सूत्रस्य कार्यम् अग्रे णम् प्रत्याहारे तत्र कवर्गीय तद् उक्तवती तत्र क ख ग ज्ञ नकारः णकारः नकारः इति वर्णाः अन्तर्भूताः इति तस्मिन् प्रत्याहारे येन विधिस्तदन्तस्य इति एकं सूत्रम् अस्ति तस्मात् णमन्तात् पदात् इति फलितार्थो भवति इति सूत्रेण इत्युक्ते तत्र येन विधिस्तदन्तस्य इति सूत्रेण यत् कार्यं भवति तत् तत्र यत् विधि किञ्चित् वदनीयमस्ति अन्ते कार्यं भवति इति सूचयति इत्युक्ते तत्र विधिः कुत्र यत्र भवति तस्य अपि च तस्य अन्ते स्थितस्य इकोर्णस्य इति भवति तेन सूत्रेण णमन्तात् पदात् इति फलितार्थो भवति इत्युक्ते णमन्तात् पदम् इत्युक्ते णमन्तं पदम् इत्युक्ते तत्र कुर्वन् इति दत्तम् अन्ते णम् प्रत्याहारस्थवर्णः अस्ति अतः णमन्तं पदम् इति तस्मात् पञ्चमी भवति णमन्तात् पदात् इति फलितार्थो भवति णमुट् इत्यस्मिन् टकारः इत्संज्ञकः तत्र टकारस्य इत्संज्ञा भवति तस्य लोपः अपि भवति अतः उकारः उच्चारणार्थम् इत्युक्ते मु इत्यस्य उकारः उच्चारणार्थम् अतः तत्र तयोः लोपयोः अनन्तरं केवलं नम् इति तिष्ठति प्रत्याहारः अनेन त्रयः आगमाः भवन्ति अतः तत्र नुट् 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 च इति यथासङ्ख्यम् अनुदेशः समानम् इति सूत्रेण तत्र क्रमेण भवन्ति पदान्ते नकारः चेत् तस्य आगमः नुडागमः नकारः चेत् नुडागमः नकारः चेत् नुडागमः यथा अस्माकम् उदाहरणे नुडागमः अभवत् नमः पञ्चम्यन्तम् तत्र पञ्चम अन्त्यम् अस्ति न तु षष्ट्यन्तम् इत्युक्ते तस्मात् इति भवति पञ्चम ह्रस्वात् पञ्चम्यन्तम् अचि सप्तम्यन्तम् अचि इति तत्र सप्तमी अस्ति इति कृत्वा पूर्वकार्यं परनिमित्तम् इति भवति णमुट् प्रथमान्तम् इत्युक्ते आदेशः आगमः वा आदेशः वा भवति अथवा नामकरणं प्रथमविभक्त्याम् अस्ति चेत् तत्र तु आदेशः नित्यं क्रियाविशेषणम् इति द्वितीयम् इत्युक्ते सूत्रे नित्यम् इति अस्ति अन्ते तत् क्रियाविशेषणम् अस्ति द्वितीयान्तम् अपि द्वितीयान्तम् अस्ति अपि च तयोर्वावचि संहितायाम् इत्यस्मात् तत्र संहितायाम् इत्यस्य अधिकारः प्रवर्तते, पदस्य इत्यस्य अधिकारः अपि अस्ति, विभक्तिपरिणामेन पदात् इति विभक्तिपरिणामं तत्र पदस्य इत्यस्य परिणामं षष्टिविभक्त्या विभक्तेः परिणामं कृत्वा पदात् इति पञ्चमी स्वीकृतम्, तादृशं सूत्रेषु भवति कार्यसिद्धेः कृते. अन्ततो गत्वा ह्रस्वात् नमः पदात् नमुट् अचि नित्यं संहितायाम् इति तत्र कुर्वन् योगः अस्मि इति अस्ति. इदानीं दृष्टवन्तः कुर्वन् इति तत्र णमन्तं पदम् अस्ति, तस्मात् परम् अच् वर्णः अस्ति, अतः एतेन सूत्रेण अकारस्य स्थाने नकारादेशः भवति, यतोहि नम् प्रत्याहारस्थ नकारः अस्ति पूर्वं, तदेव आदेशरूपेण भूत्वा कुर्वन् अस्मि इति भवति. आदेशः आदेशः तत्र आगमः क्षम्यता न तत्र पश्यतु अकारः अपगच्छति
न न नकारः अन्यत् नकारः आगत्य
अस्तु सम्यक् आगमः आगमः एव इत्युक्ते तत्र
त्रयः आगमः इति
आगमः आगमः क्षम्यताम् आगमः भवन्ति, अतः नकारस्य आगमः तत्र अकारात् पूर्वमेव भवति. कुर्वन् इति नकारद्वयं भूत्वा पुनः अस्मि इति तिष्ठति तत्र, अतः कुर्वन् इति भवति.
समीचीनं समीचीनं भगिनि.
ह्रस्वात् स्वरात् इत्युक्ते कुर्वन् इति अस्ति न तत्र वकार अपि च अकार तदेव ह्रस्वात् अकार अस्ति वा महोदय स्वर कुर्वन्
परम् इति अस्ति
नकारात् पूर्वं उकार रकार वकार अकार नकार न महोदय तत्र
सत्यं सः नकारः ह्रस्वस्वरात् परं भवेत् तत्र कुर्व इति अस्ति तदनन्तरम् अकारः ह्रस्वस्वरः अस्ति केवलं तादृशस्य स्वरात् तादृशात् स्वरात् परमेव कार्यं भवति ह्रस्वात् स्वरात् परः यः नम् अस्ति
उत्तरस्य
इत्युक्ते दीर्घ न आगच्छति आ इ उ इति
तत्र सत्यं
कुर्वान् इति अस्ति चेत् न भवति
न भवति
सत्यं
तथैव अस्ति. उत्तमं भगिनी धन्यवादः. अस्तु तर्हि तत्र करपत्रे यद् अस्ति तत् पठितम्, इदानीं पुस्तके किं दत्तमस्ति पश्यामः. तर्हि तत्र वेदा भगिनी पठति वा?
आम् अस्ति वा अहं कुत्र अस्ति
पेज् 39
ओके यमुडागमः सन्धिः एतानि उदाहरणानि परिशीलयत. प्रथम बिन्दु अस्ति प्रत्यङ्ग् योगः आत्मा. प्रत्यङ्ग् ङकार अस्ति तत्र अनुना किं वदामि तत्र यमुडागमः वा किमर्थं यमुडागमसन्धि तत्र कार्यं भवति यम् अस्ति तत्र ह्रस्वात् स्वरात् परः यः ञम् तदन्तात् पदात् उत्तरस्य अचः ञमुट् आगमो भवति नित्यम् इति सूत्रेण तत्र प्रत्यङ्गि तत्र ङकारस्य पूर्वं ह्रस्ववर्णः अस्ति ह्रस्वस्वरः अस्ति तत्पश्चात् ङकार अस्ति तत्र ञम् इत्यस्य भागमस्ति ङकार योगः आत्मा अस्ति तत् अचुवर्णः अस्ति इति कारणतः एतत् सूत्राणि कार्यं करोति यमुडागम यमो ह्रस्वादचि यमुन् नित्यम् इति सूत्रं यमो ह्रस्वादचि यमुन् नित्यम् इति सूत्रेण ङकारस्य ङकारः त तत्पश्चात् स्वरः अस्ति, स्वरस्य पूर्वम् आगमः भवति, ङकारस्य आगमः भवति, प्रत्यङ् पुनः एकवारं ङकार आयाति, तत्र आगमेन तत्र ङकार आयाति, प्रत्यङ् आत्मा प्रत्यङ्गात्मा इति रूपं तत्र भवति,
प्रत्यङ्गात्मा. उत्तमं भगिनि, धन्यवादः, उत्तममस्ति. अस्तु अग्रे नरेश महोदय.
आं महोदय, अग्रे सुगन् योग ईशः, अत्र सुग योग टवर्गस्य नकारः अस्ति, योग ई योगशः, अत्र नकारस्य पूर्वं तु ह्रस्व अकारः अस्ति, अतः नमुदागमसन्धिः भवति, अपि च परे अच् वर्णः अस्ति ई, अतः सुग अग्रे नकारः अस्ति, ईकारस्य स्थाने नकारः आगच्छति, ईकारस्य पूर्वं नकारः आगच्छति, अतः सुगन् भवति, सुगन् योग ई योगशः सुगन्नीशः भवति यत्.
उत्तमं महोदय, अस्तु समीचीनम्. अग्रे उषा भगिनी.
गृहणन् गृहणन् योगः उन्मेषन् इति अस्ति, गृहण् योगः गृह्णन् अस्तु क्षम्यता, गृह्णन् योगः उन्मेषन् उन्मेषन्, गृहण् योगः नकारयोगः
गृह्णन् गृह्णन् गृह्णन्
नाम गृहण् गृहण् योगः नकार नाम योगः
गृह्ण योगः नकारः खलु,
गृह्ण योगः नकारयोगः उकारयोगः उन्मिशन् इति अस्ति, अनन्तरं गृहण् योगः नकार योगः नकार नूतननकारः आगच्छति, नकारात् पूर्वम् उकार अस्ति, ऋस्वात् स्वरात् उकार अस्ति, अतः गमसन्धिः इति सूत्रेण तत्र नकार नूतननकार आगच्छति, रूपं भवति गृहण् गृह्णन्मिषन् इति
गृह्णन्मिषन्
गृह्णन् गृह्णन्मिषन् गृह्णन्मि
उन्मिषन्
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 पञ्चम अध्याये नवमसूत्रमस्ति, नैव किञ्चित् करोमीति युक्तो मन्येत तत् तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् पश्यन् शृण्वन् स्पृशन् जिघ्रन् जिघ्रन् अश्नन् स्वप्नन् श्वसन् प्रलपन् विसृजन् गृह्णन्नुन्मीषन् निमिषन्नपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्त इति धारयन् न नैव न एव किञ्चित् किञ्चित् करोमि इति युक्तः युक्तः मन्येत तत्त्ववित् तत्र पदच्छेदमस्ति वा महोदय, तत्त्ववित्
हा तत्त्ववित् नाम तत्त्वं यः जानाति सः तत्त्ववित्
तत्त्ववित्
पश्यन् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् गच्छन् स्वपन् स्वपन् श्वसन् अनन्तरं प्रलयन् प्रलयन् विसृजन् गृह्णन् उन्मीषन् निमिषन् अपि इन्द्रियाणि इन्द्रियाणि इन्द्रियार्थेषु इन्द्रियार्थेषु वर्तन्त इति धारयन् धारयन् न एव किञ्चित् करोमि इति
तत्तु 5.8 अस्ति न महोदय
सत्यं सत्यं तत्र किन्तु तत्र युक्तः अस्ति तत्र अष्टम नवम श्लोकः इति
अस्तु
मन्यते तत्त्ववित् तत्त्ववित् तत्त्ववित्
तत्त्वं यः जानाति सः तत्त्ववित्
इत्युक्ते सत्यम् इति अपि
नाम सत्यम् इति नाम केवलं लौकिकसत्यं नास्ति नाम तत्त्वं नाम यत् जगतः तत्त्वं नाम
पारमार्थिक वा महोदय
हा पारमार्थिकतत्त्वं हा यः जानाति
तत्त्ववित्
हा सः किं मन्येत सः
पश्यन् अत्र पश्यन् शृण्वन् स्पृशन् शत्रुप्रत्ययः अस्ति तत्र पश्यति
एतत् सर्वं कृत्वा कुर्वन् अस्ति पश्यन् अस्ति शृण्वन् अस्ति स्पृशन् अस्ति
स्पृशन् अस्ति जिघ्रन् अस्ति खादति
गच्छन् अस्ति
एतत् सर्वं कुर्वन् अस्ति इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते नाम इन्द्रियाणि सन्ति खलु इन्द्रियार्थेषु इन्द्रियार्थः इत्युक्ते तत्र इन्द्रियं नाम तत्र नेत्रम् इति चिन्तयतु चक्षुः इन्द्रियार्थम् इत्युक्ते यः पदार्थः चक्षुषा दृश्यते अर्थः नाम तत्र लोके यत् अस्ति यः अस्ति सः अर्थः नाम तत्र इन्द्रियं भिन्नमस्ति लोके यदस्ति यः अस्ति सः भिन्नः खलु तर्हि तत्र चित्रं पश्यामः चक्षुषा तर्हि इन्द्रियार्थः भवति इन्द्रियार्थः चित्रम् इन्द्रियार्थः इन्द्रियं चक्षुः इन्द्रियं किं करोति इन्द्रियार्थेषु वर्तन्ते नाम इन्द्रियैः वयं तत्र लोके किं किम् अस्ति इति तेषां ज्ञानं प्राप्नुमः खलु तदा इन्द्रियाणि कुत्र सन्ति लोके एव सन्ति इन्द्रियार्थेषु सन्ति इति अतः इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते तथापि सः किं चिन्तयति न एव अहं किञ्चित् करोमि इति
भगवान् उक्तवान् वा तत्र
न तत्र योगी एतत् सर्वं तत्र योगयुक्तः तत्र तस्य स्थितिः कीदृशं भवति नाम सन्न्यासी तद् अथ तत्र भगवतः स्थितिः न
भगवान् उवाच इति
स एव सर्वम् उक्तवान् भगिनि किन्तु कस्य वर्णनं कुर्वन्
नैव किञ्चित् करोमि इति तत्र
तत् इति तत्त्ववित् चिन्तयति भगिनि तत्त्ववित् यः साक्षात् जानाति सः किं चिन्तयति अहं केवलं साक्षी अस्मि अहं किमपि न करोमि सर्वं भगवता भवति इति खलु
अस्तु
आं सर्वं भवति इति अतः तत्र सर्वं भवति मम किमपि नास्ति तत्र चलन् सर्वं चलति एव अहं केवलं यन्त्रम् अस्मि इति तादृशम् अहं केवलम् अस्मि किन्तु
तत्त्ववित् तत्त्ववित् सोचयन्ति
मन्यते मन्येत
मन्यते इति
इति अस्ति शोभगिनी किमपि वक्तुम् इच्छति अत्र
युक्तः इत्युक्ते किं महोदय तत्र
किं भगिनि
युक्तः नैव किञ्चित् करोमि इति युक्तो मन्येत युक्तः इत्युक्ते किं महोदय तत्र
यः योगं करोति सः युक्तः
परन्तु अत्र
अत्र युक्तः इति भगिनि एकनिमिषः तत्र युक्तः इति एकनिमिषं
योगी एव
दृष्ट्वा तत्र तत्त्ववित्
शान्तपदं महोदय खलु
तत्र प्रायशः तत्र धारयन् इति धारयन् इति अस्ति भगिनि तत्र तत्त्ववित् युक्तः इति युक्तः
युज् इति धातुः महोदय युजिर् इति तस्य युनक्ति युक्ते इति भवन्ति तस्य शान्तपदं युक्तः इति भवति
अस्तु भगिनि अस्तु
योगेन सह किं योगेन सह योजितः अथवा युक्तः
युक्तः
योगे अस्ति इति युक्तः
भगिनि नाम तत्र सः तत्त्ववित् अस्ति अतः तत्र तस्य आत्मनि एव तत्र सः अस्ति लोके अपि अस्ति किन्तु सः युक्तः अस्ति आत्मना सह इति तादृशः अर्थः युक्तः इति तत्र
एङ्गेज्ड् इन् योग
अथवा तत्र आङ्ग्लभाषायां तत्र पुस्तके तत्र स्टेज् सेण्टर्ड् इन् द सेल्फ् इति दत्तमस्ति अस्तु अस्तु तर्हि अग्रे गच्छामः तर्हि अस्तु इदानीम् अग्रे तत्र इञ्जन् इदानीं शोभा भगिनी अग्रे
आं महोदय अग्रे तत्र युञ्जन् इति अभवत् तपस्विन् योगः तपस्विन् योगः एहि
युञ्जन् युञ्जन् एव
क्षम्यताम् युञ्जन् एवं तत्र युञ्जन्
युञ्जन् एवम्
इदानीं युञ्जन् इति चर्चितवन्तः अतः
अग्रे समीचीनं
युञ्जन् योगः एवं तत्र युञ्जन् इति नमन्तपदम् अन्ते नम् प्रत्याहारस्वर्णः तस्मात् पूर्वं ह्रस्वस्वरः तत्र पुनः अकारः एव तस्मात् परम् अच्वर्णः एकारः अच्वर्णः अतः तत्र नमुडागमसन्धेः प्रसक्तिः भवति तत्र सन्धेः किं नमो ह्रस्वादचि नमुण् नित्यम् इति अतः तत्र युञ्जन् नकारस्य एकक्षणं महोदय तत्र आगमः कुत्र आगच्छति इति पुनः अचः नमुटागमो भवति अस्तु अच् वर्णस्य नमुडागमः भवति इत्युक्ते ए इति वर्णस्य आगमः तस्मात् पूर्वं भवति अतः अचः आगमः तत्र अतः युञ्जन् योगः नकारः एकारात् पूर्वं योगः एवम् इति भवति अतः युञ्जन् एवम् इति अन्तिमरूपम् अपि च षष्ठाध्याये इदानीं श्लोकः तस्मिन् अध्याये पञ्चदशश्लोकम् एकक्षणं महोदय युञ्जन् एवं सदा आत्मानं योगी नित्यमानसः नियतमानसः शान्तिं निर्वाणपरमां मत् संस्थाम् अधिगच्छति. अस्तु, तत्र पदच्छेदं कुर्मः चेत् युञ्जन् एवं सदा आत्मानं योगी नियतमनसः शान्तिं निर्वाणपरमां मत् संस्थाम् अधिगच्छति. योगी अधिगच्छति कुत्र इत्युक्ते इदानीं नियत कीदृशः योगी इत्युक्ते नियतमानसः इत्युक्ते नियत इत्युक्ते तत्र तस्य तस्य अधीने अस्ति नियन्त्रणं कृतवान् अस्ति तादृशः योगी. एवम् आत्मानं सदा युञ्जन् आत्मानं स्वस्य आत्मानम् एव सः सदा सर्वदा नितरां युञ्जते युङ्क्ते अथवा किम् उक्तवती तत्र युनक्ति अथवा युङ्क्ते इति भवति. इत्युक्ते तत्र आत्मनि एव तिष्ठति इति महोदय भवान् उक्तवान् तथा तत्र मत् संस्थाम् इत्युक्ते तत्र किं तत्र मत् इत्युक्ते स तत्र भगवान् वदति मत् संस्थाम्
इति
इत्युक्ते मम संस्थाम् इत्युक्ते मम स्थानम् अथवा किं वदामः महोदय मम स्थानमेव
मां प्राप्नोति अथवा मां आगच्छति.
आम् निर्वाणपरमाम् इत्युक्ते निर्वाण इत्युक्ते तत्र मोक्षः इति अपि भवति. हा निर्वाणशतकं हा परमां इत्युक्ते तस्मात् परं किमपि नास्ति. निर्वाणपरमां शान्तिम् अधिगच्छति तादृशी शान्तिः या निर्वाणपरमाम् अस्ति परमा निर्वाण तत्र स्त्रीलिङ्गे अस्ति इति दत्तं महोदय निर्वाणपरमा इति अतः निर्वाणपरमा शान्तिः इति संस्थापि स्त्रीलिङ्गे मत् संस्थां निर्वाणपरमां शान्तिं तत्र सर्वत्र द्वितीयविभक्तिः अधिगच्छति कुत्र अधिगच्छति इत्युक्ते एतादृशीं स्थितिं प्राप्नोति कः इत्युक्ते तत्र सः योगी यः नियतमानसः अस्ति आत्मनि एव तुष्यति तिष्ठति सर्वदा युञ्जन् अस्ति आत्मनि सः एतादृशीं स्थितिं प्राप्नोति भगवान् वदति.
तत्र
युञ्जन् एवम् इति प्रथमे भागे एव आरम्भे एव अस्ति एव सन्धिं कृतवन्तः युञ्जन् एवम् इति
युञ्जन् एवम् इति समीचीनं भगिनि. अस्तु समीचीनं. तत्र वाट्सप् मध्ये अहम् इदानीमेव प्रेषितवान् तत्र सन्धिः इति पुस्तकम् अस्ति खलु तत्र अन्यानि उदाहरणानि दत्तानि तत्र तानि अपि उत्तमानि इति कृत्वा तत्र नाम तस्मिन् इति स्वस्मिन् योगः एव स्वस्मिन्नेव तर्हि तत्र अनेकानि उदाहरणानि पश्यामश्चेत् लाभः इति कृत्वा प्रेषितवान् तावदेव किमपि नास्ति. अस्तु तर्हि समयोऽपि जातः विरमामः किन्तु अग्रिमसप्ताहे तत्र समयपरिवर्तनं भवति तर्हि नाम भारतदेशे कोऽपि किमपि परिवर्तनं नास्ति किन्तु अत्र परिवर्तनं भवति इति कृत्वा तत्र अग्रिमसप्ताहात् तत्र सार्ध अष्टवादनात् तत्र EST मध्ये किन्तु केलिफोर्निया मध्ये अपि तत्र एकघण्टायाः तत्र परिवर्तनं भवति
पञ्चवादन
हा इति भवति भगिनि सत्यं सत्यं भवत्याः कृते तादृशं
पर्फेक्ट् टैम् 5:30
हा सत्यं भगिनि. अस्तु तर्हि तत्र नरेशमहोदय अन्ते तत्र शान्तिमन्त्रं वदति भवान् भगिनि
आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः. धन्यवादः. नमस्कारः. अग्रिमवर्गे मिलामः.
धन्यवादः महोदय.
धन्यवादः. धन्यवादः. नमस्कारः.